एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सर्वकारेण संघीय संसदः शीतकालिकम् अधिवेशनम् अस्यैव माघमासस्य अष्टादशे दिवसे आहवयितुम् राष्ट्रपतेः समक्षम् परामर्ष्टुम् निर्णीतमस्ति मन्त्रिपरिषदः ह्यस्तनोपवेशेन संघीय संसदः द्वयोः सदनयोः अधिवेशनम् अस्यैव माघमासस्य अष्टादश दिवसे शुक्रवासरे आह्वयितुम् राष्ट्रपतेः समक्षम् अनुरोद्धुम् निर्णीतमस्ति इति विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया असूचयत् उपवेशेन शिक्षकाणां निवृत्तिभरण सम्बद्धस्य अध्यादेशस्य विषये एकाशीत्युत्तर द्विसहस्रतम वैक्रमाब्दात् पूर्वं नियुक्तानां शिक्षकाणां कृते पूर्वव्यवस्थानुसारेणैव निवृत्तिभरणस्य व्यवस्था विहितास्ति इति शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराय अज्ञापयत् इतः पूर्वं प्रधानमन्त्रिणः केपी शर्मा ओलिनः सभामुखस्य देवराज घिमिरेभिदस्य च मध्ये संसदः शीतकालिकाधिवेशनस्य आह्वानस्य सन्दर्भे विमृष्टमासीत् बालुवाटारवर्तिनि प्रधानमन्त्रि निवासे ह्य सम्भूते विमर्शने अनयोर्मध्ये संसदः अधिवेशनस्याह्वानस्य विषये संसदः कार्यक्रम सन्दर्भे च विमृष्टमिति सभामुखस्य संचार संयोजकः शेखर अधिकारी असूचयत् सोलुखुम्बु जनपदस्य माप्य दुधकोशी ग्रामपालिकायाः प्रथम ओडा क्षेत्रस्य सप्तम ओडा क्षेत्रस्य च मध्ये अवस्थितस्य ठानेखोला भृगौ दिनद्वयात् वर्धमानः दावाग्नि अधुनावधि नियन्त्रणे नायातः दुधकोशी सामुदायिक वनक्षेत्रात् रविवासरे प्रारब्धे वन्ये रविवासरस्य सायं वन्ये प्रभावस्य किञ्चिन् न्यूनत्वेऽपि प्रातः कालात् वह्नि दीप्तः सन् विस्तृतोऽस्ति इति ज्ञापितं वर्तते दुर्गमाया स्थल्या वाताधिक्यात् च वह्नि प्रशमने काठिन्यं जायमानमस्ति इति माप्य दुधकोशी ग्रामपालिकायाः उपाध्यक्षः गौरव राय अज्ञापयत् नेपाली सेना नेपाल प्रहरी सशस्त्र प्रहरी बलम् अग्नि नियन्त्रणाय निरन्तरं संलग्ना सन्ति इति जनपद प्रहरी प्रमुख द्वारिका प्रसाद घिमिरे अज्ञापयत् प्रधानमन्त्रिणा केपी शर्मा ओलिना नेपालः न्यायोचितस्य अन्तर्राष्ट्रिय हितसहितस्य राष्ट्रहितस्य पक्षे वर्तते इति स्पष्टीकृतमस्ति नेकपा एमाले दलस्य परराष्ट्र सम्बद्ध विभागेन ह्य आयोजिते नेपालस्य परराष्ट्र नीति सम्बद्ध कार्यक्रमे अध्यक्षः ओली राष्ट्रहितं परिहृत्य सत्ता स्वार्थ लिप्सया राष्ट्रहितस्य परित्यागः कदापि न करणीय लघुतमोऽयं देश इति हीनता बोधोऽपि न करणीय इति धारणाम् अभिव्यनक् प्रधानमन्त्री ओली राष्ट्रियहितापेक्षया सत्ता स्वार्थिन लघु लघुतमानां कार्याणां महत्वस्य प्रवृत्तिः समुचिता नास्तीति चर्चयन् नेपालस्य आर्थिक सांस्कृतिक कूटनीतिक हितं केन्द्रे संस्थाप्य विश्वसनीयतया दायित्ववाहितया च प्रस्तोतव्यमिति प्रावोचत् प्रधानमन्त्री ओली संसदि प्रत्येकं विषयेष् विस्तृताध्ययनपूर्वकं पूर्वकार्यं विधाय प्रस्तोतुं संसदं विचार विमर्श स्थलित्वेन नियमाधिनियम निर्माण स्थलित्वेन च विकसयितुं सांसदान् परामृष्टवान् स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति स्वास्थ्य सुरक्षण सुधार कार्यदलस्य प्रतिवेदनस्यानुसारेण सुधारस्य योजना अग्रेसार्यते प्रतिवेदनस्याधारे तत्कालमेव विधातुं शक्यानां व्यावहारिकाणां नीतिगतानां च सुधाराणां कृते आन्तरिकं गृहकार्यम् अग्रेसारितमस्तीति मन्त्रिणः पौडेलस्य सचिवालयेन ज्ञापितं वर्तते सुधारस्य कृते मन्त्री पौडेलेन स्वास्थ्य जनसंख्या मन्त्रालयस्य अतिरिक्त सचिवस्य दीपेन्द्र रमण सिंहस्य संयोजकत्वे आन्तरिकं कार्यदलं संघटितमस्ति म्याग्दी जनपदं प्रकाशपूर्णं विधातुं पूर्वकार्यं विधीयमानमस्ति प्रतिशतं पञ्चनवतिर्जनानां गृहेष् विद्युतः प्रकाशस्य व्यवस्था सञ्जाता स्थिति जनपदममुं प्रकाशयुक्त जनपदतया उद्घुष्यते इति पेयजल जलस्रोत सिंचन कार्यालयेन ज्ञापितं वर्तते सर्वेषु गृहेषु केन्द्रीय प्रसारणस्य लघु जल विद्युतः सौर्योर्जायाश्च प्राप्तेः कारणात् गण्डकी प्रदेश सर्वकारस्य मापदण्डानुसारेण प्रकाशपूर्णस्य जनपदस्य रूपेण घोषणायै प्रक्रिया अन्तिमे चरणे प्राप्तास्ति इति कार्यालयस्य प्रमुख वरिष्ठ शाखा स्थपतिः झलक मोहन ओझा असूचयत् विधि वैपरीत्येन खोलिका नदीभ्याम पाषाण बालुकादीनाम् उत्खननम् तत्कालमेव अवरुद्धुम् सर्वोच्च न्यायालयेन सर्वकाराय पञ्चसूत्रात्मकः परमादेशः प्रदत्तोऽस्ति। न्यायाधीशयोः डॉ मनोज कुमार शर्मणः टेकप्रसाद ढुंगाना इत्यस्य च संयुक्त न्यायपीठेन आराष्ट्रम् विधि वैपरीत्येन जायमाने उत्खनने संलग्नान् दण्डयित्वा तत्कालमेव उत्खननम् रोद्धुम् परमादेशः प्रदत्तोऽस्ति। परमादेशे नदीनां संरक्षणार्थं पृथक्तया नदीगत पदार्थानां प्राकृतिक स्रोतोधिनियम निर्माय क्रियान्वयितुम् आदेशः प्रदत्तो वर्तते। आराष्ट्रं खोलिका नद्योः जायमानानि अवैधानिकानि उत्खननानि अवरुद्धुम् न्यायालये याचिका निवेदनानि प्रस्तुतानि आसन्। गृहमन्त्री रमेश लेखकः निगदति देशस्य आवश्यकतायाः अनुसारेण सर्वकारेण केचन अध्यादेशाः क्रियान्विताः वर्तन्ते। विराटनगर विमानस्थले ह्यः संचारकर्मिभिस्सह गृहमन्त्री लेखकः देशस्य आर्थिक विकासे सेवा प्रवाहे वैदेशिक निवेश वृद्धेश्च विषये सर्वकारेण आवश्यकतानुसारेण केचन अध्यादेशाः आनीताः वर्तन्ते इति समस्पष्टयत्। परराष्ट्र मन्त्रिणा डॉ आर्जु राणा इत्यनया इजिप्ट देशस्य विदेश मन्त्रिणा सह दूरभाष वार्ता विहिता अस्ति। हमास समूहस्य नियन्त्रणे विद्यमानस्य यूनः विपिन जोशिनः मुक्तये प्रयासं विधातुं मन्त्रिणा डॉ राणा इत्यनया इजिप्ट देशस्य विदेश मन्त्रिणा सह दूरभाषेण वार्ता विहिता अस्ति। इजरायल सर्वकारस्य हमास समूहस्य च मध्ये शान्तिवार्तायाः युद्धविरामस्य च अनन्तरं हमास समूहेन आत्मनियन्त्रणे विद्यमानानां बन्दीनां मुक्तेः प्रक्रिया प्रारब्धा अस्ति। राणा प्रथमे चरणे एव विपिन जोशिनः मुक्तये विदेश मन्त्रिणः माध्यमेन इजिप्ट देशस्य सर्वकारम् अनुरुणत्। भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः भाषते सहायक राजमार्गस्य द्रुत निर्माणं सर्वकारस्य प्राथमिकतायां वर्तते। सहायक राजमार्गान्तर्गतस्य बाँकी बर्दिया जनपदयोः योजकस्य 52 वर्ष प्राचीनस्य पेडारी नाला सेतोः अवलोकनं विदधानः मन्त्री दाहालः द्रुततया निर्माणं सम्पादयितुं सर्वकारेण प्राथमिकताक्रमे कार्यं विधीयमानम् अस्ति इति अभाषत। नेकपा माओवादी केन्द्रस्याध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति शिक्षा एव देशविकासस्य समृद्धेश्च प्रमुखाधारो वर्तते। गोरखा नगरपालिकाया अष्टमौड़ा क्षेत्रस्य आहाले स्थानस्थितस्य श्री सरस्वती माध्यमिक विद्यालयस्य स्वर्णजयन्ती समारोहे ह्य अध्यक्ष प्रचण्ड शिक्षा क्षेत्रम् अग्रे वर्धयितुं राज्यस्य प्रतिबद्धताया अनुसारेण देशस्य सभ्यताया विकासस्य सुशासनस्य च स्तरस्य निर्धारणं भवतीति प्रावोचत्। नई प्रकाशनेन राष्ट्रिय जीवने विभिन्नेषु क्षेत्रेषु ख्यातानां दशसाधकानां कृते गतविक्रमवर्षीयस्य नई पुरस्कार प्रदानार्थं निर्णीतमस्ति। नई प्रकाशनेन नई चन्द्रधन पुरस्कारेण प्राध्यापक चेतुनाथ शर्मा आचार्यः, नई भूपाल दुर्गा पुरस्कारेण हरिराम जोशी, नई देरुनिक सुकीर्ति पुरस्कारेण प्राध्यापक डॉ मोहन लोहनी, नई कीर्तिनिधि पुरस्कारेण चिकित्सक वसन्त पन्तश्च सम्मानिताः भविष्यन्ति इति समाचारः।